एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। सर्वकारेण आगामिनः आर्थिक वर्षस्य कृते अष्टादश खर्वाणाम् षष्टेः अब्जानाम् त्रिंशतः कोटीनाम् च रूप्यकाणाम् अनुमानितम् वार्षिकम् आयव्ययकम् प्रस्तुतम् वर्तते। संघीय संसदा ह्यस्तने संयुक्तोपवेशे आगामिनः आर्थिक वर्षस्य कृते आयव्ययकम् प्रस्तुवन् अर्थमन्त्री वर्षमान पुन आयव्ययकाय व्ययपक्षे एकादश खर्वाः चत्वारिंशद् अब्जानि षड्षष्टिः कोटयश्च रूप्यकाणि, संचित धनपक्षे त्रयः खर्वा द्वापञ्चाशद् अब्जानि पञ्चत्रिंशत् कोटयश्च रूप्यकाणि, वित्तीय व्यवस्थायै त्रयः खर्वाः सप्तषष्टिः अब्जानि एक अष्टादश कोटयश्च रूप्यकाणि विनियुक्तानि सन्तीति प्रावोचत। प्रस्तुताय व्ययकस्य विनियुक्तेषु रूप्यकेषु व्ययपक्षे दशमलवत्रि एकोत्तर एकषष्टिः प्रतिशतम्, संचित धनगतपक्षे दशमलव नवचतुरुत्तराष्टादश प्रतिशतम्, वित्तीय व्यवस्थायै दशमलव सप्तचतुरुत्तरैकोनविंशतिः प्रतिशतञ्च रूप्यकाणि विनियुक्तानि सन्ति। अर्थमन्त्री पुन आगामिनि आर्थिक वर्षे प्रतिशतम् षड्भिः अंकैः आर्थिक वृद्धिः, प्रतिशतम् दशमलव पञ्चोत्तर पञ्चभिः अंकैः मुद्रास्फीतिश्च भविष्यतीति लक्ष्यम् आयव्ययकेन गृहीतमस्तीति अवोचत। अर्थमन्त्री पुन आयव्ययके पूर्वाधार विकासाय, कृष्यै ऊर्जसे पर्यटन विस्ताराय, निवेशनस्य प्रवर्धनाय च बलं प्रदत्तमस्ति। आयव्ययकेन साधारण नागरिकेषु आत्मविश्वासः प्रवर्धिष्यते चेति अगदत्। आयव्ययके आर्थिक सुधारस्य घोषणा, कृषि उत्पादनस्य वर्धनाय कृष्याम् निवेशन दशकस्य घोषणा, निवेशन मैत्री वातावरणस्य निर्माणाय विशेषेण बलं प्रदत्तं चास्तीति अर्थमन्त्री पुन असूचयत्। अर्थमन्त्री पुन सार्वजनिक वित्ते असन्तोलनम् दृष्टम्, सार्वजनिक ऋणम् वर्धमानमस्ति, संचित धनस्य व्ययम् न सम्भूतम्, संचित धनस्य व्ययः न सम्भूतः, लक्ष्यस्य अनुसारेण राजस्वम् न संकलितम् चेति अर्थतन्त्रे दृष्टानाम् समस्यानाम् समाधानाय सुधारस्य आनीतैः नूतन कार्यक्रमैः समृद्धेः आकांक्षायाः पूरणत्वेन आर्थिक सुधार वर्षस्य घोषणावितास्तीति अगदत् आयव्ययकम् प्रस्तुवन् अर्थमन्त्री पुन। सूचना प्रविधेः क्षेत्रस्य विकासाय, पर्यटन प्रवर्धनाय, नेपालस्य निर्माणम् कुरु इति अभियानाय च अग्रेवर्धनस्य नीति आयव्ययकेन गृहीतमस्तीति प्रावोचत्। अर्थमन्त्री पुन राष्ट्रिय प्राकृतिक स्रोतो वित्तायोगस्य परामर्शेन वित्तीय समान निकरणानुदानस्य पक्षे संघीय सर्वकारेण प्रदेश सर्वकारेभ्यः षष्टिः अब्जानि, स्थानीय सर्वकाराणाम् कृते अष्टादश अब्जानि च रूप्यकाणि विनियुक्तानि सन्तीति असूचयत्। एवमेव सशर्तम् अनुदानस्य पक्षे प्रदेशेभ्यः पञ्चविंशतिः अब्जानि, चतुरशीतिः कोटयश्च, स्थानीय सर्वकारेभ्यः खर्वद्वयम् अष्टाशीतिः कोटयश्च रूप्यकाणि विनियुक्तानि वर्तन्ते। आयव्ययके भरतपुर पोखरा बुटवल स्थानानि संयोज्य गण्डकी आर्थिक त्रिभुज परियोजना सञ्चालयिष्यते इति घोषणा विहिता अस्ति। अर्थमन्त्री पुन नेपाल प्रहरी, सशस्त्र प्रहरी बल, नेपाल राष्ट्रिय अनुसन्धान विभागानाम् संस्थागत रूपेण सुदृढीकरणं विधाय दक्ष व्यवसायिका विधास्यन्ते इति लक्ष्यम् गृहीतमस्तीति अकथयत्। एवमेव आयव्ययके अन्तर्राष्ट्रिय सीमा सुरक्षा व्यवस्थाम् सुदृढाम् प्रभावकारिणीम् च विधाय सीमा सुरक्षायाम् स्थानीय नागरिकाणाम् सहभागितायाः स्वत्वस्य च वर्धनस्य कार्यक्रमाः सञ्चालयिष्यन्ते। विपद व्यवस्थापन सम्बद्धम् कार्यम् प्रभावकारी रूपेण अग्रे वर्धिष्यते चेति कार्यक्रमाः समाविष्टाः सन्तीति अज्ञापयत्। तत्पूर्वम ह्य उपविष्टेन मन्त्रिपरिषदः उपवेशेन अर्थमन्त्रिणा वर्षमान पुनीत्यनेन संघीय संसदः संयुक्तोपवेशे प्रस्तुतम्। आगामिनः आर्थिक वर्षस्य कृते सर्वकारस्य राजस्वस्य व्ययस्य च वार्षिकम् अनुमानितम् आयव्ययकम् पारितीकृतम् आसीत्। प्रधानमन्त्री मन्त्रिपरिषदः सिंहप्रासादवर्तिनी कार्यालये उपविष्टेन उपवेशेन आयव्ययकम् पारितीकर्तुम् निर्णीतम् आसीदिति संचार सूचना प्रविधि मन्त्री सर्वकारस्य प्रवक्ता च मन्त्री रेखा शर्मा अज्ञापयत्। प्रतिनिधि सभाया ह्यस्तनोपवेशे अर्थमन्त्री वर्षमान पुन आगामिनः आर्थिक वर्षस्य कृते नेपाल सर्वकारस्य राजस्वस्य व्ययस्य च वार्षिकम् अनुमानितम् आयव्ययकम् पञ्जीकारितवान् वर्तते। आयव्ययके सैद्धान्तिक विमर्शनाय सभामुखेन देवराज घिमिरे विधेन अस्यैव ज्येष्ठस्य विंश एकविंश द्वाविंशश्च दिवसा निर्धारिता सन्तीति उपवेशम् असूचयत्। अर्थमन्त्री वर्षमान पुन विमर्शनस्य क्रमे उत्थापितानां प्रश्नानाम् उत्तराणि ज्येष्ठमासस्य त्रयोविंशे दिवसे प्रदास्यति। ह्यस्तनोपवेशे अर्थमन्त्री पुन एतद् विक्रम वर्षीयम् आर्थिकम् विधेयकम् च प्रस्तुतवान्। उपवेशेन एतद् विक्रम वर्षीय निवेश सहजीकरण सम्बद्धान् कतिपयान् नेपालादि नियमान् संशोधयितुम् प्रस्तुतः अध्यादेशः स्वीकृतश्च वर्तते। प्रतिनिधिसभायाः अपरोपवेश ज्येष्ठस्य विंशे दिवसे रविवासरे पूर्वाह्नस्य एकादशवादने वस्ता। एवमेव राष्ट्रियसभायाः अध्यक्षेण नारायण प्रसाद दाहालेन आयव्ययके सैद्धान्तिक विमर्शनाय ज्येष्ठस्य विंश एकविंश द्वाविंशश्च दिवसाः निर्धारिताः सन्तीति उपवेशम् अबोधयत्। विमर्शनस्य क्रमे उत्थापितानां प्रश्नानाम् उत्तराणि अर्थमन्त्री पुन ज्येष्ठस्य द्वाविंशे दिवसे प्रदास्यति। राष्ट्रियसभायाः अपरोपवेशः अस्यैव ज्येष्ठस्य विंशे दिवसे दिवा सपादैकवादने वस्ता। राष्ट्रपतिः रामचन्द्र पौडेलः गणतन्त्र दिवसस्य अवसरे ह्य काष्ठमण्डपस्य टुडीखेलवर्तिनी सैनिक मञ्चे आयोजिते समारोहे सहभागी अभवत्। तदवसरे नेपाली सेनाया सम्मानम् अर्पितम् आसीत्। गणतन्त्र दिवसस्य अवसरे गणतन्त्र दिवस मूल समारोह समित्या काष्ठमण्डपस्य टुडीखेलवर्तिनी सैनिक मञ्चे समायोजितम् विशेष समारोहम् सम्बोधयन् प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः शान्ति प्रक्रियाम् यथाशीघ्रम् निष्कर्षम् प्रापयितुम् संक्रमणकालिक न्याय सम्बद्धानि अवशिष्टानि कार्याणि यथाशीघ्रम् सम्पादयितुम् सर्वकारः प्रतिबद्धोऽस्तीति अभाषत। प्रधानमन्त्री प्रचण्डः संविधानस्य भावनाम् मर्म च सम्बोधयितुम् द्वन्द्वव्यवस्थापनस्य शान्तिस्थापनायाश्च अधिकानि कार्याणि सम्पन्नानि सन्तीति प्रावोचत। सुशासनाय विकास निर्माण कार्याणि सञ्चालयितुम् सहज सेवा प्रवाहस्य जनेभ्यः अनुभूतिम् दापयितुम् च सर्वकारः स्पष्टतया अग्रेसरो वर्तते इत्यवोचत। प्रधानमन्त्री प्रचण्डः संविधानस्य क्रियान्वयनम् संघीयतायाः सबलीकरणम् अर्थतन्त्रे सुधारः पुनरुत्थानम् च सुशासन प्रवर्धनम् नागरिक मैत्री शासन स्थापनम् भ्रष्टाचार नियन्त्रणम् च सर्वकारस्य प्राथमिकतायाम् विद्यन्ते इति प्रावोचत। समारोहे उपराष्ट्रपतिः रामसाय प्रसाद यादवः प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड सभामुख राष्ट्रिय सभाया अध्यक्ष सांविधानिक निकायानां प्रमुखाः मन्त्रिणः उच्च सर्वकारीयाधिकारिणश्च उपस्थिताः आसन्। समारोहे नेपाली सेना नेपाल प्रहरी सशस्त्र प्रहरी बलम् काष्ठमण्डप महानगरपालिका ललितपुर महानगरपालिका उपत्यका अन्तर्गताः अन्याः नगरपालिकाः नेपाल स्काउट नामी संस्था च विशेष यात्रायाः प्रदर्शनम् अकुर्वन् इति समाचारः।